ओम नमो भगवते वासुदेवाय। अथ पञ्चविंशोऽध्यायः। श्री भगवानुवाच, गुणानामथ मिश्राणां पुमान् येन यथा भवेत् तन्मे पुरुषवर्येदमुपधारय संसतः। समोदमस्य तिक्षेक्षा तपः सत्यं दया स्मृतिः, तुष्टित्यागो स्पृहा श्रद्धा ह्रीर्दयातिः स्वनिर्वृतिः। काम इहा मदस्तृष्णा स्तम्भाशीर्भिदा सुखम्, मदोत्साहो यशः प्रीतिर्हास्यं वीर्यं बलोद्यमः। क्रोधो लोभो नृतं हिंसा याच्यादम्बः क्लमः कलिः, शोकमोहौ विषादार्ति निद्राशाभिरनुद्यमः। सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वशः, वृत्तयो वर्णितप्रायाः सन्निपातमथोऽशृणु। सन्निपातस्त्वहमिति ममेत्युद्धवया मतिः, व्यवहारः सन्निपातो मनो मात्रेन्द्रियासुभिः। धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः, गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः। प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे, स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सा। पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः, कामादिभिरजोयुक्तं क्रोधाद्यैस्तमसायुतं। यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः, तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियमेव वा। यदा आशिष आशास्य मां भजेत स्वकर्मभिः, तं रजः प्रकृतिं विद्याधिंसामाशास्य तामसम्। सत्त्वं रजस्तम इति गुणाजीवस्य नैव मे, चित्तजायैस्तु भूतानां सज्जमानो निबध्यते। यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवं, तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान्। यदा जयेत्तमः सत्त्वं रजसङ्गं भिताचलं, तदा दुःखेन युज्येत कर्मणा यशसा श्रिया। यदा जयेत् रजः सत्त्वं तमो मूढं लयं जडम्, युज्येत शोकमोहाभ्यां निद्रया हिंसयाशया। यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः, देहे भयं मनोसङ्गं तत्सत्त्वं विद्धि मत्पदम्। विकुर्वन् क्रियया चाधीरनिर्वृत्तिश्च चेतसाम्, गात्रा स्वास्थ्यं मनोभ्रान्तं रज एतैर्निशामय। शीतच्चित्तं विलीयेत चेतसो ग्रहणे क्षमम्, मनो नष्टं तमोग्लानिस्तमस्तदुपधारय। एधमाने गुणे सत्त्वे देवानां बलमेधते, असुराणां च रजसि तमस्युद्धव रक्षसाम्। सत्त्वाज्जागरणं विद्यात् रजसा स्वप्नमादिशेत्, प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम्। उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः, तमसा धोध आमुख्याद् रजसान्तरचारिणः। सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः, तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः। मदर्पणं निष्फलं वा सात्विकं निजकर्म तत्, राजसं फलसङ्कल्पं हिंसाप्रायादितामसम्। कैवल्यं सात्विकं ज्ञानं रजो वैकल्पिकं च यत्, प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम्। वनं तु सात्विको वासो ग्रामो राजस उच्यते, तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम्। सात्विकः कारको सङ्गी रागान्धो राजसः स्मृतः, तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः। सात्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी, तामस्य धर्मे या श्रद्धा मत्सेवायां तु निर्गुणा। पथ्यं पूतमनायस्तमाहार्यं सात्विकं स्मृतं, राजसं चेन्द्रियप्रेष्ठं तामसं चार्जिता शुचि। सात्विकं सुखमात्मोत्थं विषयोत्थं तु राजसं, तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम्। द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः, श्रद्धावस्था कृतिर्निष्ठा त्रैगुण्यः सर्व एव हि। सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः, दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ। एताः संसृतयः पुंसो गुणकर्म निबन्धनाः, येन मे निर्जिताः सौम्य गुणाजीवेन चित्तजाः। भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते, तस्मात् देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम्। गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः, निःसङ्गो मां भजेत् विद्वान् अप्रमत्तो जितेन्द्रियः। रजस्तमश्चाभिजयेत् सत्त्वसंसेवया मुनिः, सत्त्वं चाभिजयेद्युक्तो नैरपेक्षेण सान्तधीः। स संपद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम्। जीवो जीव विनिर्मुक्तो गुणैश्चाशय संभवैः। मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत्। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायाम एकादश स्कंधे पंचविंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तुते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।